ॐ नमः शिवाय दहर हर महादेवा साराष्ट्रदेशे विशदे तिरम्ये ज्योतिर्मयं चन्द्रकलावतंसं भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये श्रीशैलशृङ्गे विबुधातिसङ्गे तलाद्रितुम्बर्पि मुदा वसन्तं तमर्जनं नल्लिकपूर्वमेटं नमामि संसारसमुद्रसेतुम् अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनामम् अकालमृत्योपरिरक्षिणार्थं वन्दे महाकालमहासवेशं कावेरिकानर्मद्योपवित्रे समागमे सज्जनतारणाय सदैवमान्धो त्रिपुरे वसन्तम् ओङ्कारमीशं शिवने कुमीरे पूर्वोत्तरे प्रज्वलिका निधाने सदा वसन्तं गिरिजासमेतं सुरासुराराधित पादपद्मं श्रीरीध्यवैकुण्ठमहं नवामि यां मे सदङ्गे नगरे तिरम्ये विभूषिताङ्गं विविधेश्च भोगे सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये महाद्विपार्श्वे च तते रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः सुरासुरार्यक्षमहोरगाध्यै केदारमीशं शिवमेकमीरे सयादृशीशे विमले वसन्तं गोदावरीतीरपवित्रुदेशे यद्धर्षणात्पातकमाशुनाशन् प्रयाति तन्त्यम्बकमीशमीरे सुताम्रपर्णी जलराशियोगे निबद्धि सेतुं ऋषिधेरसङ्खे श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि यन्दाति निशाकिनिका समाजे निषेव्यमाणं पिशिताशनैश्च सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापवृन्दं वाराणसीनाथमनाथनाथं श्रीविश्वराखं शरणं प्रपद्ये एलापुरे रम्यविशालकेऽस्मन् समुल्लसन्तं च जदब्वरेणं वन्दे महोदारतरस्वभावं घृष्णेश्वराखं शरणं प्रपद्ये ज्योतिर्मय द्वादशालिङ्गकाना शिवात्मना प्रोक्तमिदं क्रमेण स्तोत्रं पथित्रा मनुज्वाग्भि भक्त्या फलं तदा लोक्य निजं भज च पिट्टि द्वादश ज्योतिर्लिङ्गकाना